ओम नमो भगवते वासुदेवाय। असदशमोऽध्यायः। विदुर उवाच, अन्तर्हिते भगवति ब्रह्मालोकपितामहः, प्रजा ससर्ज कतिधा दैहिकीर्मानसीर्विपुः, ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम, तान् वदस्व्यानुपूर्व्येण छिन्दिनः सर्वसंशयान्। सूत उवाच, एवं संचोदितस्तेन क्षत्राकौशारवो मुनिः, प्रीतः प्रत्याहतान् प्रश्नान् हृदि स्थानत भार्गव। मैत्रेय उवाच, विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः, आत्मन्यात्मानमावेश्य यदाह भगवानजः, तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः, पद्ममम्भस्य तत्काल कृतवीर्येण कम्पितम्, तपसा ह्येधमानेन विद्यया चात्मसंस्थया, विवृद्धविज्ञानबलो न्यपाद्वायुं सहाम्भसा, तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम्, अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत्। पद्मकोशं तदाविश्य भगवत्कर्म चोदितः, एकं व्यभाङ्क्षी दुरुधादृता भाव्यं द्विसप्तधा, एतावाञ्जीवलोकस्य संस्थाभेदः समारितः, धर्मस्य यन्निमित्तस्य विपाकः परमेष्ठ्यसौ। विदुर उवाच, यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः, कालाख्यं लक्षणं ब्रह्मन् यथा वर्णयनः प्रभो। मैत्रेय उवाच, गुणव्यतिकराकारो निर्विशेषो प्रतिष्ठितः, पुरुषस्तदुपादानमात्मानं लीलया सृजत्, विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया, ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना, यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम्। सर्गो नवविधस्तस्य प्राकृतो वै कृतस्तु यः, कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः, आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः, द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः, भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्, चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः, वैकारिको देवसर्गः पञ्चमो यन्मयं मनः, षष्ठस्तु तमसः सर्गो यस्त्व बुद्धिकृतः प्रभो, षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु, रजोभाजो भगवतो लीलेयं हरिमेधसः, सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः, वनस्पत्यो शथिलता त्वक्सारावीरुधोद्रुमाः, उत्स्रोतसस्तमप्राया अन्तःस्पर्शा विशेषिणः, तिरश्चामष्टमः सर्ग सोऽष्टाविंशद्विधो मतः, अविदो भूरि तमसो ग्राणग्या हृद्यवेदिनः, गौरजो महिषः कृष्णः सूकरो गवयोरुरुः, द्विषफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम, खरोश्वोऽश्वतरो गौरः शरभश्च मरी तथा, एते चैकषफाः क्षत्तः शृणु पञ्च नखान् पशून्, श्वासृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ, सिंह कपिर्गजः कूर्मो गोधा च मकरादयः, कङ्कगृध्रवटस्येन भासभल्लूकबर्हिणः, हंससारसचक्राव काकोलूकादयखगाः, अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम्, रजोधिकाः कर्मपरा दुःखे च सुखमानिनः, वैकृताश्रय एवैते देवसर्गश्च सत्तम, वैकारिकस्तु यः प्रोक्तः कौमारस्तु भयात्मकः, देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः, गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः, भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः, दशैते विदुराख्याताः सर्गास्ते विश्वसृकृताः, अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च। एवं रजः प्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः, सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दशमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।